अथ देवी सूक्तम् ओम् अहम् रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः अहम् मित्रावरुणो भाबिभर्म्यहमिन्द्राग्ने अहमश्विनो भा अहम् सोममाहनसम् बिभर्म्यहम् त्वष्टारमुत पूषणम् भगम् अहम् दधामि द्रविणम् हविष्मते सुप्राव्ये यजमानाय सुन्वते अहम् राष्ट्री सङ्गमनी वसूनाम् चिकितुषी प्रथमा यज्ञीयानाम् ताम् मा देवा व्यधतु पुरुत्रा भूरिस्तात्राम् भूर्यावेशयम् तीम् मया सो अन्नमत्तियो विपश्यति यः प्राणिति य ईम् शृणोत्युक्तम् अमन्तवो माम् तवुपक्षयन्ति श्रुधि श्रुतश्रद्धिवम् ते वदामि अहमेव स्वयमिदम् वदामि जुष्टम् देवेभिरुतमानुषेभिः यम् कामयेतम् तमुग्रम् कृणोमि तम् ब्रह्माणम् तम् ऋषिम् तम् सुमेधाम् अहम् रुद्राय धनुरातनोमि ब्रह्मद्विशेषरवेहम् तवावु अहम् जनाय समदम् कृणोम्यहम् द्यावा पृथिवी आविवेश अहम् सुवेपितरमस्य मूर्धन्मम योनिरप्स्वम् तः समुद्रे ततो वितिष्ठे भुवनानुविश्वो तामों द्याम् वर्ष्मणोपस्पृशामि अहमेव वात इव प्रवाम्यारभमाणा भुवनानि विश्वा परो दिवा पर एना पृथिव्यै तावति महिना सम्बभूव ॐ शान्ति शान्ति शान्तिः इति देवी सूक्तम्।